अभितष्ठे भजीधया मनीषा मत्यो न भाजी सुरोजिहानः अभिप्रियाणि मर्मे सत्पराणि कवीम् गच्छामि सन्दृशे सुमेधाः इनादवृच्छजनी मा कवीनाम् मनोधृतः सुकृतस्तक्षतद्याम् इमाभूते प्रण्यो ओबद्धमानामनो माता अधनुधर्मानिग्मन् ेवद्रगुह्या दधानाभुतक्षत्राजरोदसी समञ्जन् सम्मात्राभिर्ममिरे एव सुर्वी अन्तर्महि समृते धाजसे दुः आतिष्ठन् तम् परिविश्वे अभूषाञ्चयोऽवसानश्चरति स्वरोचिः महत्तद्रष्णो असुरस्य नामा विश्वरूपो अमृतानितस्थौ असूतपूर्वा वृषभोऽध्याया निमास्य सुहृदः सन्ति पूर्वीः दिवो न माता विदधस्य जीभिः क्षत्रम् राजाना प्रदिवो दधाते त्रीणि राजाना विदधे गुरूणि परिविश्वानि भूषधस्तदांसि अपश्यमत्र मनसा जघन्वान् हृदे गन्धर्वान्नपि वायुकेशान् सजन्वस्य वृषभस्य धेनोरानामभिर्ममिरे सज्ञङ्गोः अन्यदन्यदसुर्या अम्बसा नानि माजिनो ममिरे रूपमस्मिन् सजन्वस्य स वितर्णगिर्मे हिरण्ययी ममतिम् जामसि श्रेत् आदुष्टुतिरोदसे विश्वबिन्वे अपि भयोषा जनीमानि वव्रे युवम् रत्नस्य साधतो महो यद्दैवी स्वस्तिः परेण स्यातम् गोपालिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मालिनः कृतानि शृणम् गो वेम मघवानमिन्द्रमस्मिन् भरे नृतमम् वाच सातौ शृण्वन्तमुग्रमूदये समत्सघ्नन्तम् वृत्राणि सञ्चितम् धनाना